सम्यग् दृष्टिर्भवति नियतं ज्ञान वैराग्य शक्तिः स्वं वस्तुत्वं कलयितुमयं स्वान्यरूपाप्तिमुक्त्या यस्माज्ज्ञात्वा व्यतिकरमिदं तत्त्वतः स्वं परं च।